सर्वेभ्यो नमः, स्वागतम्। प्रथमतया वयं प्रार्थनां वदामः। वृन्दा भगिनी,
ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। श्रीगुरुभ्यो नमः, हरि ओम्।
धन्यवादः भगिनी। अस्तु, इदानीं एकनिमिषः। अस्तु, गतवर्गे वयं किञ्चित् उपसर्गाणां विषये किञ्चित् पठितवन्तः। अद्य उपसर्गाणां विषये किञ्चित् पठित्वा वयं तस्य किञ्चित् अभ्यासं कृत्वा अग्रिमवासरे वयं द्वितीयविभक्तिः विषये पठितुं प्रयत्नं कुर्मः।
भगिनी, ऐ हेव् सम् क्वेश्चन्स्।
आं, वदतु भगिनि।
Bhagini, regarding the sentences that we did last time, I wanted meanings of three sentences. One was karyani atmavantam na nibadnanti. Sentences 14, 15 and 16.
अस्तु अस्तु, तत्र कार्याणि आत्मवन्तं न निबध्नन्ति। निबध्नन्ति इत्युक्ते किं? फास्टन् अथवा
कार्याणि आत्मवन्तम्। ऐ डिडन्ट् गेट् दैट।
It's like work does not hold back a person.
Okay. Vivasvan yogam manave praha.
Atra praha itukte tavan iti bhavati. विवस्वान् योगं मनवे प्राह इत्युक्ते विवस्वान् टोल्ड् मनु द योगम्।
ओके,
इति भवति विवस्वान् इति कर्तृपदम्।
ओके ओके, दट्स् वाट् ऐ वास् ट्रैङ्ग् टु सर्च्, इट् इस् अ वर्ड्। विमूढाः जीवात्मानं न अनुपश्यन्ति। विमूढाः
विमूढः इत्युक्ते समन् हुस्
Somebody who is ignorant, Bhagini?
Someone who is stupid atva foolish.
Murkaha.
Murkaha.
It's more like ignorant, because anupashyanti is, they cannot differentiate, right?
Between discover. They cannot behold Atva discover.
So, Murkaha cannot understand Jivatmanam is what it means, right?
Okay. Or cannot behold.
Cannot behold, okay. Dhanyavad Padam.
Anya prashnah santi va vayam gatavarke kim patitam tasya vishe prashnah santi va? Na santi chet.
Yeah, one question, Bhagini. Bhagini, you had shown one table with all the upasargaha and the different meanings with that upasargaha. So, does all those 22 upasargaha have different meanings?
But the meaning changes when you add it to a verb. That is just the basic meaning for the upasargaha. But it will change depending on which verb you add it to.
Add it. Okay.
Bhagini, I have a question. Page 93, the highlighted list of the 22 upasarga. The one after V, how do you pronounce it?
Ang.
Ang?
Ang.
Ang
iti bhavati. When you add it to a verb, it's easier to pronounce. Are there questions about the rules we read last week? Also, I sent the form to fill out. Are there any questions on that? The people who filled it out got 100 out of 100. Oh, 50. There's only 5 questions.
I think they were quite easy.
Yeah.
Except I didn't know that you can answer two of them, one of them. That's why I got wrong on that.
But that's okay. I thought you. I'm sure you knew that. So
I realized that it is.
So I rounded your score up to 50 because you knew. But I didn't see anyone else do it. There were only 4 people who did it out of 6 people. So I think there are 6 people. Yeah.
Sorry, Bhagini. I didn't see that. I'll do it today, Bhagini.
No problem, Bhagini. It'll be open. I won't close it, so anyone can do it.
Now, did you put the upasarga on the site, Bhagini?
I didn't put that. I forgot. I'll put that in today.
Okay.
I hope the email was early enough for you to listen to the recording, because last week some people came late.
Yeah, Bhagini, that was really nice of you to send it early. So we could catch up. Thank you so much.
You're welcome, Bhagini. Astu. Astu. Ante agre patamaha. Astu. Atra patamaha yatodaharanam upasarga sahita vakyani rachayata chatraha graham agachati atra a yogaha gam dhatuhu gachati a yogaha gachati agachati baktaha devam prayogaha nam dhatuhu kim bhavati
pranamati
Pranamati. Bhagavan yuge yuge
sambhavani
sambhavati
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 mata putran pariyogaha pal dato
paripalayati
Bhagini, you
used to be a friend, Kama, Shatrun.
sambhavati
prati
no bhagini the third one
samharati
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 samharante
samharati
and mata
sainika माता पुत्रान् परिपालयति
अनन्तरं
अत्र गुरुन् परिपृच्छति
परिपृच्छति
बहुवचनं
किं
छात्राः बहुवचनं परिपृच्छन्ति न वा भगिनि
परिपृच्छन्ति
गुड्
वन् भगिनि
कविः काव्यं
विलिखति
अनन्तरं दुर्योधनः द्रौपदीं
उपहसति
कर्णः धनुर्विद्यां
विस्मरति
विस्मरति
साधुः धर्मं
अनुसरति
ऐ डोण्ट् सी दट् भगिनि केन् यु प्लीस् स्क्रोल् डौन् साधुः धर्माम् अनुसरति
कृष्णः सर्वान्
उपकरोति
भगिनि फार् एट् आल्सो वि आर् सेयिङ्ग् smarati and for 9 also we are saying smarati bagini sarati
no
anusarati that is dhatu anusarati
anusarati
and anusmarati vismarati
vismarati
vismarati okay thank you
krishnaha sarvan
upakaroti ganga hima layat
निस्सरति
सैनिकाः आयुधानि
सङ्गृह्णन्ति
बहुवचनम् युधिष्ठिरः गुरोः पादौ प्रक्षालयति
सञ्जायति
अर्जुनः
प्रभाषति
प्रभाषते योगारूढः कर्मसु
अनुसज्जति
हौ डू वी नो इट इज आत्मनेपदी और परस्मैपदी प्रयोगम हियर
वी हैव टू नो दैट्स ऑल मीडिया इट्स लाइक दे आर लाइक इंटरचेंजेबल सो वी हैव टू नो इफ द रूपम इज वैलिड इन परस्मैपदी और इन आत्मनेपदी
Bagini, what is the meaning of Prabhashati?
Answers, I think. Answers.
So is it like his own answer and that's why it becomes Atmanepadi?
Actually, I think it's like Bhashate, same as Bhashate. Doesn't really matter if you are the Upasarga.
Oh.
So Bhashate means to speak. Prabhashate also means that.
Okay.
Yoga Rudaha Karmasu Na
Anusajjati Is that correct, Padini?
I think it changes to anushajjate shakarah
अनुषज्यते
अनुषज्यते बिकम्स आत्मनेपदे
षज्जते और सज्जते भगिनी
षज्जते शकारः बिकॉज यू आर एडिंग द उपसर्ग
उकारान्तं बिकॉज ऑफ द उकारान्तं राइट
आम
ओके
मूढाः देवं न
प्रपद्यते
समीचीनम् अस्तु प्रश्नाः सन्ति वा अस्तु इदानीं तत्र उपसर्गसहितक्रियाः तस्य लङ् रूपं कथं कुर्मः अपि तावत् प्रत्ययः पुल्लिङ्गे अस्तु अत्र आगच्छति इति अस्ति तस्य लङ् रूपम् आ योगः अगच्छत् आगच्छत् तावत् रूपम् आ योगः गतवान् आगतवान् अस्तु एकनिमिषः अत्र
भगिनी भगिनी व्हाट डू यू मीन बाय लङ् रूपाणि प्रेजेंट
लङ् लङ् लकारस्य रूपाणि
लङ् लकारस्य ओके
अत्र आगच्छति आयोगः अगच्छत् आगच्छत् तावत् रूपम् आयोगः गतवान् आगतवान् अस्तु इदानीं एकम् उदाहरणं
बोथ् आफ् देम् विल् मीन् केम् रैट् भगिनि आगच्छत् तेन आगतवान्
आम् आम् अस्तु सो विल् टेक् प्रहरति अस्तु अत्र प्र इति उपसर्गः अस्ति तस्य भूतकालनिर्माणं कथं कुर्मः प्रथमतया तत्र उपसर्गः प्र अस्तु हरति इति निष्कासयामः चेत् हरति इति भवति अनन्तरं इति अत्र प्र इति उपसर्गः उपसर्गं त्यजामः चेत् हरति इति भवति तत्र उपसर्गरहितक्रियापदमस्ति इत्युक्ते उपसर्गरहितक्रियापदं नाम विथौट् उपसर्गः अपि उपसर्गसहितक्रियापदं नाम वित् उपसर्गः अत्र उपसर्गरहितक्रियापदमस्ति हरति तस्य भूतकालरूपम् अहरत् इति भवति अस्तु अहरत् इदानीं पुनः उपसर्गं योजयामः चेत् प्रयोगः अहरत् प्राहरत् इति भवति अस्तु इदानीं तस्य पूर्णतया वयं कुर्मः चेत् तत्र अहरत् अहरताम् अहरन् अहरः अहरतम् अहरथ अहरम् अहराव अहराम इति भवति किल एतत् वयं किं कुर्मः चेत् तस्य प्र इति योजयामः चेत् किं भवति? प्राहरत् प्राहरतां प्राहरन् प्राहरः प्राहरतं प्राहरत प्राहरं प्राहराव प्राहराम इति भवति. अस्तु केवलम् उपसर्गं योजितवन्तः अत्र. अत्र उपसर्गः नास्ति, अत्र उपसर्गः अस्ति. अस्तु प्रश्नाः सन्ति वा अत्र? अस्तु
प्रहरत् इट् इस् लट्लकार.
प्रहरति इति लट्लकारः.
यद् प्रहरत् प्रहरतां वाट्लकार
लङ् प्राहरत् प्राहरतां दट् इस् लङ् लकार. अस्तु आनयति. बृन्दा भगिनी भवती पठतु.
आनयति लङ् रूपाणि आ योग अनयत् आनयत्. तव तु प्रत्ययरूपाणि पुल्लिङ्गे आ योग नीतवान् आनीतवान् आनयत् आनीतवान्.
प्रवदति प्रतिवदति अपि करोतु.
प्रतिवदति लङ्गरूपाणि प्रति योग अवदत् प्रत्यवदत्. तव तु प्रत्ययरूपाणि प्रति योग उदितवान् प्रत्युदितवान्.
इदानीं गोपाल् महोदय भवान् पठतु.
निराकरोति लङ् रूपाणि निर्योजय योगम् आ योगः अकरोत् निराकरोत्. तव तु प्रत्ययरूपं प्रति सोरि नीर् प्लस् निर्योगः आ योगः कृतवान् निराकृतवान् इति.
अनुकरोति अपि करोतु.
अनुकरोति लङ् रूपम् अनु योगः अकरोत् अनु अन्वकरोत् इति. तव तु प्रत्ययरूपम् अनु योगः कृतवान् अनुकृतवान् इति.
समीचीनम्. अस्तु इदानीं लक्ष्मी भगिनी भवती पठतु. प्रविशति अपि विलिखति.
उपसर्गसहितक्रिया प्रति प्रविशति प्रयोगे अविशत् प्रविशत् तव तु पुल्लिङ्ग तव तु पुल्लिङ्गप्रचयरूपाणि प्रा योगे विष्टवान् प्रविष्टवान् विलिखति वि योगे अलिखत् व्यलिखत् तावत् प्रचयरूपाणि पुल्लिङ्गे वि योगे लिखितवान् विलिखितवान्.
समीचीनं भगिनि. अस्तु अनन्तरं प्रिया भगिनि.
परिहरति लङ्लकाररूपाणि परि योगः अहरत् पर्यहरत्. तावत् प्रत्यन्तरूपाणि परि योगः हृतवान् परिहृतवान्. अवगच्छति अव योगः अगच्छत् अवगच्छत् अवागच्छत्. अवयोगः गतवान् अवगतवान्
Pagini is having some IT issues, I think.
I've been having problems with the mind.
Can't hear you well, Bhagini.
My computer's been acting up since the morning, so...
No problem, Bhagini.
It's been very slow for some reason. It's usually very fast. But okay. We'll see. If it happens again, then I'll just turn in another device so that we don't delay. You did till Avagachati, right, Bhagini?
Haan, Bhagini.
Radha Bhagini, can you do Niyunkte and Avalokate?
Haan, Bhagini. Upasarga Sahita Kriyaha. नियुङ्क्ते लट् रूपाणि नियोज्य अयुङ्क्त
योगः नियोगः
योगः अयुङ्क्त न्ययुङ्क्त तवत्तु प्रत्ययरूपाणि पुल्लिङ्गे नि योगः युक्तवान् नियुक्तवान् उपसर्गसहितक्रिया अवलोकते लट् रूपाणि अवयोग अलोकत अवालोकत तव तु प्रत्ययरूपाणि अवयोगः लोकितवान् अवलोकितवान्
इदानीम् आदत्ते
आदत्ते
बृन्दा भगिनी भवती करोतु
उपसर्गसहित क्रिया आदत्ते लङ् रूपाणि आ योग अदत् आदत् तव तु प्रत्ययान्त रूपाणि आ योग दत्तवान् आदत्तवान् उपसर्गसहित क्रियाः उपजायते लङ् रूपाणि उपयोगः अजायत् उपजायत् तव तु प्रत्ययान्तरूपाणि उपयोग जातवान् उपजातवान्
इदानीं गोपाल् महोदय भवान् समापयतु
प्रपद्यते लङ्लकाररूपं प्रयोगः अपद्यत् प्रापद्यत तव तु प्रत्ययरूपं प्र योगः प्रयोगः पन्नवान् प्रपन्नवान् इति अनन्तरं निवर्तते नियोगः अवर्तत निवर्त न्यवर्तत लङ्लकाररूपं तवतु प्रत्ययरूपं नियोगः वृत्तवान् निवृत्तवान् इति.
अत्र किमस्ति चेत् इ योगः अ यकारः भवति
न्यवर्ति दट् इस् गुणसन्धि.
अस्तु, इदानीम् उदाहरणं दृष्ट्वा रिक्तस्थानं पूरयत कुर्मः. परन्तु एकनिमिष अत्र
भगिनी, ऐ हेव् अ क्वश्चन्.
वदतु
भगिनी, इन् द प्रीवियस् टेबल् यु हेव् वि योग अलिखत् अलिखत् यु गेट् व्यलिखत्. सो इ योग अ गिव्स् यु व्य, रैट्? देट् इस् हौ इट्.
न न न न, देट्स् नाट् हौ इट् वर्क्स्. इ योगः अ बिकम्स् यकारः. But
yakara is ya, that is guna sandhi.
Yeah, okay.
So if you see vi likhati tatra if you split it, it will be if yogah
a e o yogah
and then ali khatre, so a yogah likhati. We'll just keep that as
V, V. So that is V plus E V plus Y.
So this part will become Yakaraha. So then you still have the Vakaraha, Yogaha Yakaraha, Yogaha Likhati. That's why you get Vya Likhat, because you conjugated it, sorry. So vyalikat.
Same thing for bhagini, even the
ni
upasarga. Ni yoga ayu ayu.
That's why you get the nakaraha there, because you took the yakaraha from the e and the a, and then you still have the n nakaraha.
Okay.
In plus e plus
Yes. So, looking at these, not that example, but this example, and the examples they have given here, to conjugate a verb with an upasarga, sopanani kani. Sopanani means what are the steps?
Steps, Bhagini.
What are the steps to conjugate a verb with an upasarga?
Which one, Bhakti? Paharati?
No, for any upasarga, what are the steps you have to follow?
We have to split the verb into...
No. First, you have to check if there's an upasarga.
Okay.
Or else if there's no upasarga, then you don't use the rule, right?
Yeah.
Then you don't follow the steps.
Adanantaram.
So then you split it into a upasarga rahita kriyapada. Like harati. And then the last before step, put it into the lakaram you want. That's the third step. And then the last step.
Bhagini, sorry, what is the second step you said? Upasarga asti chet, upasargam. Tyaktva means you separate it, is it?
You separate it and make it into a verb that does not have a upasarga.
Okay.
So that's what we're doing here, right? Even if there's two upasargaha, we're just making it into akarut. So first you split it. Nir yogaha a yogaha karoti. Then you conjugate karoti to whatever you want, which is akarut. And then you add in the upasarga again. Asto. So these are the steps you'll want to follow to conjugate a verb with upasarga. I also put the sandhi thing here. So a yoga a is a and e is a. So you'll want to look at that. And here is what we had the question about. The e yoga a yakaraha.
Then we check the lakara of the word, right? Of the split word, is it?
You conjugate you conjugate the verb into the lakara you want.
I didn't understand that, Padmini.
So if you have harati, as we took in the example, we're trying to conjugate it into lang lakara, right?
Okay.
So we have praharati. We want to conjugate it into lang lakara. So first we do the first step, which is split it into pra yoga harati. Second step is to use the upasarga rahita kriyapada, which is the verb without the upasarga.
The upasarga harati.
And then you conjugate that into the lakaram you want. So here we want lang lakaraha. So we put it into lang lakaraha, aharat. And then we add in the upasarga again. Prayoga a harat praharat. Iti chittam.
Thank you.
Like this you can do for any verb, but be very careful when you add in the upasarga and check that this table that you're doing it right. So, and also you cannot add any upasargaha to any kriyapadam. Not all verbs have 22 upasargaha that you can use for it. You have to be careful which upasarga you use. But if you can use ag for gachati, right? You can use the prefix a for gachati. Then it will come in all lakaras. It won't be like it will only come in one lakara. Prashna Santiva?
Is there any rule for that, Bhagini, or we have to?
For what, Bhagini? Like how many upasargas it will come for?
No,
Bhagini. No. And there's also no rule when it will come into Parasmaipadi and when it will change into Atmanipadi.
Okay.
You'll just have to check or remember each time. Antaram. Now, following the steps, do aharati. Everybody can look at this. I'll say the verb you have to do. Gopal Mahodaya, can you do aharati? Same verb. Now we did praharati. We're doing aharati.
Aharati.
First do the lang rupam and then you can do the ktavatu.
Yeah, lang rupam for aharati. Tas praharat, pra yogaha, aharat, praharat.
Why praharat? Where did the pra come from?
No. Aharat, what is the prefix?
Aharati is the kriyapada.
Aharati, okay. Aharati, lang rupam will be aharat.
So add in the upasarga now. A yoga aharat, aharat.
A yogaha aharat aharat.
No, Ayogaha Aharat.
Ayogaha Aharat. Aharat. Lang Rupam.
Idanim Tavatu Rupam? Harati Tyasya Hrutavan Iti Bhavati.
Hrutavan. Ayogaha Hrutavan. Ahrutavan?
Gatavan, no?
आहृतवान्
इदानीम् आगच्छति कृतवन्तः तत्र आगच्छत् अपि
आगच्छत् आगच्छत् अण्ड् आगतवान् आगतवान्
इदानीम् उत्तिष्ठति तत्र उत् योगः अतिष्ठत् उदतिष्ठत् इति भवति उदतिष्ठत् इत् योगः इट्स् नाट् हियर् बट् just saying ityogah a udatishtat utyogah stitavan uttitavan iti bhavati uttitavan antaram anukacchati anuyogah agacchat tatra anvagacchat iti bhavati ukarah atra ukarah yogah a anvagacchat anantaram anu योगः गतवान् अनुगतवान् इदानीम् अनुसरति राधाभगिनी भवती करोतु अनुसरति
अनु योगः सरति अनुसरति अनु अनु अनुसरत् नो अनुसरत्
असरत् इति
भूयोगः
अ किं भवति यकारः अन्वसरत्
Asarat is Anvasarat, right?
Okay. Also, I think Shrutavan is what it should be. Sarati Shrutavan.
Yeah.
I think that's the Bhutakalam.
Yeah, Anusrutavan.
While you conjugate that, I'll just check that that's right. Davatu Shrutavan. Shrutavan. So this will be kind of hard. Anu yogaha sritavan.
Yes. Anu sritavan?
Sritavan. Bhagini, I have a question on uttishtati. How did it become udatishtat?
Bhagini, can you write, can you put it on the Krishna Falakam, the breakup of that word that Radha Bhagini just said?
Anusarati one.
No, the Uttishtati.
Oh, yeah, okay, yeah. Uttishtati. Yeah, how did it become Udatishtat? That's the one, right, Vrindavakini?
Ambagini.
So it's just Sandhi. We'll learn more about that later. That's why even in Gita Sopanam, they didn't ask you to conjugate it. Because we haven't learned that. We'll learn how to do that later on and how it doesn't be become udatishtat. That's what it seems like, right? Ityukaha a should be...
becomes dakara.
It becomes dakaraha, not takaraha.
Yeah, dakaraha. So, plus yoga.
इदानीं परिहर प्रहरति दट्स् वाट् वी जस्ट् डिड् प्राहरत् अण्ड् प्रहृतवान् इदानीं प्रक्षालयति किं भवति प्रयोगः
प्रयोग अक्षालयत्
अक्षालयत्
प्रक्षालितवान्
प्रक्षालितवान्
अक्षालयत् प्रक्षालयत् अनन्तरवतु
प्रक्षालितवान्
क्षालितवान्
प्रक्षालितवान्
प्रक्षालितवान् समीचीनं विहरति वियोगः
धातुरूपं भगिनि हौ वी हैव टु सर्च
इन् व्हाट
दिस् धातुरूपं हौ इट् इस् चेञ्जिङ्ग् क्षालयति आर् एनिथिङ्ग् so the oh,
you can just look it into ashtadhyayi there they'll have all the forms for you example
no it is based on the gana is it the first gana bhuvadi gana
but it doesn't always go on that mahodhya so let's see for Viharati, if you put Harati, you get Hridatuhu. So Harati, and if you go to Upasargartaha, you'll know what all you can put. I think this has all of the Upasarga and some more.
Sorry, how did you search?
Just go to Ashtadhyay and go to the Dhatu part of it.
Dhatu Pata and then I have to look up the Dhatu.
You don't have to look up the Dhatu, you can just put in the Kriyapadam. Without the Upasarga, Ashtadhyayi doesn't work with the Upasarga, I think.
Okay, Ashtadhyayi.
If you, sorry,
if you search with that, it works. You just have to go there and search your thing, okay.
But you can't put in the Upasarga. You'll have to put the Kriyapadam in without the Upasarga. For the Tavatu, you might not know all the Rupam, but if you go to Kridante, you'll see Tavatu. You'll see like all the...
What does Kridante mean? Kru it is.
Pratyaha. Like that. So, Tavatu. Hrithavan, Hrithavati. Asa.
Kridanta is a noun form, right, Bhagini? Of the verb.
Anantaram, Parityajati. Atra Sattamase,
Paryatyajat.
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 Anantaram Tyaktavan, I think Tyajati Tyaktavan, so Pratyaktavan, sorry, Parityaktavan.
Parityaktavan, Parityaktavan.
Nikshipati, Kshipati, Nyakshipati, Nyakshipati, Yakaraha, Ikaraha Yoga, Akaraha, Yakaraha Bhavati, Nyakshipat, अपि क्षिप्तवान् निक्षिप्तवान्
इति भवति लङ् लकार रूप भगिनी न्यक्षिपत् केन् यु रैट् इट् भगिनि प्लीस्
Without the Upasarga, it will be Akshipat.
Yes. What is the Viharati? How do you do it? V plus Harat and...
Aharat. E Yoga Yakaraha. So, Vyaharat.
And the Tavatu form of it?
Hrithavan Yogahavi Vihrithavan. Prashnaha Santivatra. Astu. So, I'll... give exercise 4 and 5 as homework, and I'll also send the Upasargaha file. And you can look here for the Sandhi thing. And try to do 4 and 5 as homework. It's only 24 sentences. And when you do the verb, try to look it up in spoken Sanskrit and see if you're correct, because it might change the from Parasmaipadi to Atmanepadi. So look it up and see if you're right to check your answer. And try to
study 4 and 5 of what, Bhagini?
The exercises. On page
exercises. Page 97, four and five. Okay.
If you don't have it, I can send a screenshot. I think I sent.
No, you sent the book. You sent the book, Bhagini. Yeah, I got it.
Okay. I think let's just do one Vibhakti practice and then we'll end. So, we have 5 people and we have 8 Vibhaktis. Who wants to do 2 Vibhaktis? Who wants to do just 1 Vibhakti?
Yeah, we can do 2, Bhagini.
Okay, so... Okay, maybe we won't do it like that. So let's just see. So let's do a hard one, because we don't have much time. Who is brave enough to try Avayavaha?
Avayavaha. Is it Akaranta Shabdam?
Amam, Akaranta. Akaranta Pulingaha. No, no.
Akaranta Pulingaha.
Rama Shabdavat. Rama Shabdavat.
Rama Shabdavat is easy, yeah.
Depends on the word, right?
Avayavaha, avayavahu.
Astu. Okay, one. Everyone can do. Let's do one by one. Who wants? Okay, Gopal Mahodaya, you can try first.
Avayavaha, right? Avayavaha, avayavahu, avayavaha, avayavahu, avayavahu. Avayavaha. Avayavam, avayavau, avayavan. Avayena, avayabhyam. Avayavena, avayavabhyam, avayavaihi. Avayavaya, avayavabhyam, avayavebhyaha. Avayavat, avayavabhyam, avayavebhyah. Avayavayeshu.
Avayaveshu.
He avayava, he avayavau, he avayavaha.
Samiji.
Oh my god, this was really tongue twisting. Yeah.
Bhagini, is it avayaveshu or avayavayaveshu?
Avaya. Wait, one second. Avaya. So you're okay. Avayaveshu. Avayaveshu.
Okay.
The word is only avayavaha. Just 4 letters.
Avayavaha.
Avayaveshu.
Okay.
Avayaveshu. The visarga, ahaha, ending is visarga is addition.
If you take that as another letter, visargaha, then that will only be 5 letters to conjugate this. Asto. Prashna.
We have to write it and see.
Prashna ha santiva. Asto. Na santi chet, shanti mantra madhamaha.
ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः, हरि ओम्।
धन्यवादः महोदय, नमस्कारः, पुनर्मिलामः।